नमस्ते, आरभामहे। वाक्यकारं रुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। ओके, देयर आर सम क्वेश्चंस इन द बिगिनिंग। व्हाट इज द सूत्र नंबर फॉर द डेफिनेशन ऑफ पद अंग संज्ञा? పదసంజ్ఞా సుప్తిగంతం పదం, దేర్ ఇస్ అ డిఫరెంట్ సూత్ర, దేర్ ఆర్ టూ త్రీ సూత్రస్ ఫర్ పదసంజ్ఞా. నంబర్ వన్ విల్ రైట్ డౌన్ హియర్. So 1, 4, 14. So the 1, 4, 14 Suptigantam Padam, which is very famous rule. Then 1, 4, 17 is Swadishu Asarvanama Sthane, that is connected with this pada. Swadishu Asarvanama Sthane, these are the rules. For Bhasamya is the same adhyaya 1, 4, 18 is Bhasamya Echibham. Okay, yeah. So there was one more question, I think. Can you explain Bhasamya again? Thanks. Okay. So there is one more question about Bhasamya. As I mentioned, the sutra is yachi bham iti Bhasamya vidhayakam sutram. Likhami yachi iti sutram asti, yachi bham. Atra yachi itenena yu plus ach, you achi, inta amshadvayam asti, you yakaraha ach, sarve saravarnaha. Yachi iti saptami bhakti, yachi pare yachi yakaradi pratyaya pare, apratyaya which begins with yakara, yakaradi pratyaya pare, ajadi pratyaya pare, పూర్వస్య భసంజ్ఞ. చకారాది ప్రత్యయ పరే, అజాది ప్రత్యయ పరే, పూర్వస్య అర్థాత్ అంగస్య భసంజ్ఞ. కుత్ర విద్యమాన ప్రత్యయ అతి చేత్ ప్రత్యయ విచార్ విచార్ మెన్షన్ ఇన్ చతుర్థాధ్యాయ అండ్ పంచమాధ్యాయ. ప్రత్యయ విచార్ మెన్షన్ ఇన్ చతుర్థాధ్యాయ అండ్ పంచమాధ్యాయ among those pratyayas, yakaradi pratyaye ajadi pratyaye pare angasya basamnya bhavati. This is the meaning of yatibham. For example, here this a, after, because though the pratyaya is ta, tu is it, so it disappears, only a remains. So a is ajadi pratyaya. Ajadi pratyaya pare purvasya, whatever anga, Rama, Krishna, whatever anga it might be, so it gets basamnya. So same with padasamnya also. Remaining pratyas, yakaradi ajadi pratyaya pare basamnya, anya pratyeshu, anyeshu pratyeshu pareshu, purvasya padasamnya. See, bhyam is not a yakaradi or ajadi pratyaya. Therefore, when bhyam pratyaya follows, tada purvasya padasamnya. Kintu sarvanama sthana samnya asti chet, basamnyapi nasti, padasamnyapi nasti. Yadi sarvanama sthana samnya asti, tari basamnyapi na bhavati, padasamnyapi na bhavati. Okay? And so 1.4.18 is an exception for 1.4.17. Yes, yes, correct. So Swadhisha Asura Namasthane is a Utsarga, it's a general rule, and Yachibham is an exception. Correct. Okay. Okay. Then, yeah. Sharada Gopalanji raised hand. Just a minute. We'll unmute. I'm trying to unmute, but yes. Sarada Gopal.
Namaste, namaste. Gatavarshe.
Na shruyate.
Sah, aham Gmail reminder na prapto.
Eva.
Shruyate.
Ha, shruyate, shruyate.
Namaste, Mahodaya. Aham idanim. Email reminder na prapnomi.
Yam, yam. Aha.
Kripaya include karotu. Gatavarsham krutavati.
Oh, yam, yam. Bhavati tatra vyoma tesham ekam email id asti. Tatra preshayate sarvam. Tam vyavastham te pashyanti.
Okay.
Aham na janam tadvishaye.
Dhanyavadah.
पुनः प्रश्नाः सन्ति सर्वनाम संज्ञा प्रत्ययस्य भवति वा अंगस्य सर्वनाम स्थान संज्ञा सर्वनाम संज्ञा टु संज्ञास सर्वनाम संज्ञा एंड सर्वनाम स्थान संज्ञा दिस टू आर वेरी डिफरेंट Sarvanama samnya is different. Sarvanama sthana samnya is different. So here this is Sarvanama sthana samnya. Sarvanama sthana samnya pratyayasya. These five first pratyayas, two aujas amount. These five pratyayas, they get Sarvanama sthana samnya. But anga samnya and bhasamnya and pada samnya, that is to anga. Anga gets basamnya and anga gets padasamnya, not pratyaya. Okay. Yeah, Prasad ji says the email reminders are going to promotions, spam sections. So you can check there. Okay, astu tarihi. इदानीं नपुंसकलिङ्गे हलन्त नपुंसकलिङ्गशब्दानां विषये वक्तव्यमस्ति. तत्रापि किञ्चित् परिवर्तनं वर्तते, विशेषेण सर्वनामस्थानं भं पदं किञ्चित् परिवर्तनमस्ति, अतः तद्विषये पुनः मया स्मारितम्. अत्र सर्वनामस्थानसंज्ञा केवलं बहुवचनप्रत्ययस्य वर्तते. अत्र पश्यन्तु, सर्वनामस्थानसंज्ञा बहुवचनप्रत्ययस्यैव, एकवचने द्विवचने च सर्वनामस्थानसंज्ञा नास्ति. प्रथमाविभक्तेः बहुवचने, द्वितीयाविभक्तेः बहुवचने च सर्वनामस्थानसंज्ञा वर्तते. तत्र सूत्रमस्ति षि सर्वनामस्थानम् इति. षि सर्वनामस्थानम् शि इति अयं प्रत्यय, दिस् इस् शि प्रत्यय. सो शि प्रत्यय गेट्स् सर्वनाम स्थानसंज्ञा. हौ इट् बिकेम् शि, बिकास् एस् वि नो सु औ जस् बहुवचन प्रत्यय, प्रथमाभक्ति बहुवचन प्रत्यय इस् जस् एण्ड् द्वितीयाभक्ति बहुवचन प्रत्यय इस् शस्. देन् हौ इट् बिकेम् शि, देर् इस् अ सूत्र जस् शसोः शिः. जस् एण्ड् शस् अनयोः स्थाने शि भवति, भयोः स्थाने, जस् शसोः स्थाने शि भवति. अतः नपुंसकलिङ्गे, नपुंसकलिङ्गे शि भवति. तस्मात् नपुंसकलिङ्गे प्रथमाविभक्तेः बहुवचने, द्वितीयाविभक्तेः बहुवचने च जस् शस् इति प्रत्ययौ न दृश्येते, किन्तु षि इत्येव दृश्यते. तस्य सर्वनामस्थानसंज्ञा अस्ति. पुनः एकवचने, एकवचनप्रत्ययस्य प्रथमाभक्ते एकवचनप्रत्ययः सु, द्वितीयभक्तेः एकवचनप्रत्ययः अम्, अनयोः लुक् भवति. लुक् नाम अत्र लोपः, अदर्शनम्, प्रत्ययस्य अदर्शनं भवति. सूत्रम् अत्र लिखितमस्ति, स्वमोः नपुंसकात्, नपुंसकात् स्वमोः लुक्. सु इति एकवचनप्रत्ययः, अम् इति द्वितीयभक्तेः एकवचनप्रत्ययः, द्वयोः अपि स्वमोः नपुंसकात् इति सूत्रेण लुक् भवति. अतः सुप्रत्ययः अपि न दृश्यते, अम् प्रत्ययः अपि न दृश्यते. द्विवचनप्रत्ययः, द्विवचनप्रत्ययः प्रथमाभक्तौ द्वितीयाभक्तौ च औ इत्यादि, सु औ जस् अम् औट् च औ इति प्रत्ययः आसीत्. द्वयोः स्थाने अपि शि दीर्घः, अत्र बहुवचने ह्रस्वः अस्ति, शि इस् ह्रस्व, बट् इन् द्विवचने इस् दीर्घ, शि. नपुंसकाच्च इति सूत्रेण औ इत्यस्य स्थाने षि भवति. नपुंसकाच्च एवञ्च अत्र प्रत्ययाः किञ्चित् परिवर्तन्ते. एक प्रथमाभक्तेः द्वितीयाभक्तेः एकवचने प्रत्ययस्य अदर्शनं भवति, अतः प्रत्ययः न दृश्यते. प्रथमाभक्तेः द्वितीयाभक्तेः द्विवचने षि इति प्रत्ययः, प्रथमाविभक्तेः द्वितीयाविभक्तेः च बहुवचने षि इति प्रत्ययः, तस्य सर्वनामस्थानसंज्ञा अस्ति. अतः बहुवचने केवलं सर्वनामस्थानसंज्ञा, द्विवचने भसंज्ञा वर्तते, एकवचने प्रत्ययस्य लोपः भवति, ततः सुबन्तम् इति कारणात् पदसंज्ञा अस्ति. इत्येवं नपुंसकलिङ्गे प्रत्ययेषु परिवर्तनम्. रिमैनिङ्ग् प्रत्ययास् आर् सेम्, टा ङे एक्सेट्रा, दे आर् सेम्, ओन्ली इन् प्रथमा विभक्ति एण्ड् द्वितीया विभक्ति प्रत्ययास् चेञ्ज्. सो इन् नपुंसकलिङ्ग वी हाव् टु एड् दीस् प्रत्ययास्, Pratama Vibhakti and Ditya Vibhakti, these pratyas to be added. Okay. Tra Kanitana Udaharanani Pashyamaha. Ditya Vibhakti Bahuvachanam is not Sarvanamasthana. Both are Sarvanamasthanas only. See, in the previous Ditya Bhakti Bhavatana and Prathama Bhakti Bhavatana. Both are Sarvanamasthanas only. Both of them have Sarvanamasthana Samja. So Prathama Bhakti and Ditya Bhakti is same. In the Pumasakalinga, Prathama Bhakti forms and Ditya Bhakti forms are same because Pratyas are same. See, here also it is she, this is she, this is also in Bahuvachana, both are she, Hraswa Ikara. So they are, since they are, this is Pratyaha Samanaha Santi, Ataha Rupani Api Samanani Bhavanti. Janim Krishanchana Shabdanam Prakriyam Janimaha. Pasamam Gunavat Shabdaha. Pachat Shabdasya Vishaye Vadishyami. There are some special rules are there. So we will explain Pachat later. Gunavat. Gunavat Shabdaha. Gunavat. First Pratyaya is Su. Gunavat Su. But as I mentioned, this pratyaya disappears, so only gunavat remains. So ekavachana rupam gunavat itteva. Then gunavat e. Gunavat plus e is a divachana pratyaya. Gunavat plus e gunavati. This Gunavati is different. Gunavati, you may heard feminine form, Gunavati. This is different. Here, this is Divachana. Gunavat Shabdasya, Divachanam. Gunavat, Gunavati, and Bahuvachana. Gunavat plus E. Hraswa Ikara is the Bahuvachana Pratyaya. Gunavat plus E. Ikarasya Sarvanamasthana Samnyasti. Ataha Napumsakasya Jalataha. Jalantasya. See, this Anga ends with Takara. It means it ends with Jal. Jal Anta. Chaphain Ghatathas Hal Pariyantam. Jal Anta. Jalantam Angam Chet. Jalantasya Numagamaha Bhavati Sarvanamasthana Pratyaya Pare. Iti Sarvanamasthana Pratyaya Ataha Tasmin Pare Numagamaha Bhavati. Numagamaha Bhavati Chet Gunavant. Gunavant I Gunavanti. Gunavanti iti rupam. Evanja Gunavat Gunavati Gunavanti Ekavachanam Divachanam Bahuvachanam. Evameva dvitiya bhaktau api samanam rupam. Yatha pratyayaha samanaha santi yatha rupam samanam. Gunavat gunavati gunavanti itteva dvitiya bhaktehe rupani. Tritiya bhakti taha, tritiya bhakti onwards pullinge yatha rupani santi tadvadeva. As we did in pullinga, since pratyayas are same in pullinga and apumasgalinga, tritiya vibhakti onwards pratyayas are same, therefore forms are also same. Only in prathama vibhakti and ditiya vibhakti these forms are different in apumasgalinga. Why this rule is not applied for the divachanam? Which rule is it about? I think you are asking about numagama. The numagama rule says sarvanama sthane pare. Okay, sarvanama sthana pratyaya pare. This divachana pratyaya is not a sarvanama sthana pratyaya. Only bahuvachana pratyaya has sarvanama sthana samnya. So sarvanamasthana samnya sarvanamasthana pratyaye pare numagamah bhavati. Atah bahuvachane eva numagamah, divachane numagamah nasti. Astu? Yes, Rao ji.
Yeah, shruyate va?
Ah, shruyate.
Atra. सर्वनाम संज्ञा बहुवचन बहुवचने अस्ति इत्युक्ते ओनली फॉर नपुंसकलिंग बहुवचनम राइट
यस यस यस
सो द जनरल रूल दैट सर्वनाम स्थामा दैट सो आउट जस्ट अम आउट इज अ जनरल रूल बट सर्वनाम स्थान संज्ञा फॉर बहुवचनम applies only for napumsakalinga halanta shabdas, right?
Yes, those su aujas am out, this general rule is applicable only in pullinga and strilinga.
Okay.
For not in napumsakalinga.
Oh, napumsakalinga, yeah. Only the bahuvachanam of first and second cases.
Correct.
Okay, got it. Thank you.
Okay. Yeah. So in napumsakalinge bahuvachana pratyayasya eva sarvanama sthana samnya. In pullinga and strilinga the first five pratyaya so aujas am out they get sarvanama sthana samnya, but in napumsakalinga only bahuvachana pratyaya get sarvanama sthana samnya. Okay, yeah. Yes, so only in napumsakalinga divachana is not a sarvanama sthana. Yes. So divachana and ekavachana, they are not sarvanama sthana in napumsakalinga. The reason is there are there can be two explanations because the sutra says like that. See, she sarvanama sthanam and the second rule sut anapumsakasya. The sarvanama sthana samnya vidhayakam sutram. So there are two rules. The first rule was shi sarvanama sthanam, which I mentioned previously. Shi sarvanama sthanam. Okay, this is the first rule. And the second one, sut anapumsakasya. Anapumsakasya. This rule says anapumsakasya. Napumsakalinge sut sarvanama sthana samnyam na prapnoti. Sut means su aujas amount. Sut gets sarvanama sthana samnya, but anapumsakasya, not in napumsaka. Not in napumsaka linga. Napumsakasya sut is not a sarvanama sthana. So in napumsaka what happens? Only she gets sarvanama sthana samnya. Shi sarvanama sthanam sut anapumsakasya. These are the two rules. Yes, Samirathan. Is this based on what is being used in the language? It is correct. So, the grammar explains what is there in the language. So, what is used? What are the forms are there in the language? Language includes both Vaidika and Laukika. So, grammar explains that. So if there is numagama in, if numagama is there, if it is used in divachana, then there will be a sutra. Since but there is no such usages, therefore sutras are not there. So Ashtadhyayi explains the usage. Yeah, okay. Okay, Astu. Okay. Kalyan Krishnanji, Prashna Astiva.
Hi. Yes, good evening. The reason for the confusion seems to be that Sarvanamasthana is used in two separate definitions, one for the Srilinga and Pullinga, the other one for the Napumsakalinga.
Correct.
So that's one. Then the other thing, if I understand it correctly, is that between Srilinga, Pullinga, and Napumsakalinga, the 21 pratyayas have been divided into four different categories of Padasamjna, Bhasanya, and Sut, and then one for the Napumsakalinga, so that you can apply rules taking a whole bunch of them at a time. It's what it sounds like, right? That's why you made this category. Is that right?
Correct.
Okay.
So based on these three samjhas, rules are applicable. Sarvanamasthana, Bha, and Pada. So there are a list of rules in Ashtadhyayi. So there is Adhikara called Bhasya. In Chaturtha 6-4, you will find a rule, Bhasya. So all rules related to Bhasanya are listed under that Adhikara. Okay, Astu. Okay, then this Pachat Shabda I will explain later. That is the other Shabda. Nakaranta Gudin Shabda. So, Gunin. Gunin Nityatrapi, again, the same pratyas. Gunin plus Su. And as I mentioned, Su disappears. And Gunin is a nakaranta. If a word ends with nakaranta, and if there is a pada samjna, so this is also pada because subanta, sub came and disappeared. Therefore, it is subanta. Subantam iti karanat, atra nalopah pratipadikantasya, nalopaha, we studied this in the previous class, nalopaha pratipadikantasya, iti sutrena, nakarasya lopaha bhavati. Ataha ekavachana rupam guni iti hasva ikara guni. Then gunin plus au au nasti, sorry, this is the e dirgha ikara. So gunin plus e gunini divachanam gunini. Then bahuvachana gunin plus e hrasva ikara gunin plus e. Now this rule is applicable. I explained this rule in the previous class also. In han pusharyam nam shau. In means ending with in. So this gunin ends with in. The last two letters are in Gunin Shabda. Innanta and Han. Vritra Han. There are words like with end, the words which end with Han. Then Pushan Aryaman. Etesha Innanta. Innanta Shabdaha. Hannanta Shabdaha. Pushan Shabdaha. Aryaman Shabdaha. Etesham. Shau Eva Dirgha. Shau is Saptami Bhakti of Shi. Shi Ityasya Saptami Bhakti. Tehe ekavachane shau iti rupam. Shau, shi pratyaye pare ityartha. Shi pratyaye pare etesham upathayaha dirghaha. Inhan pusharyam nam upathayaha dirghaha shau pare. Upatha nama antyat purvaha varnaha, the penultimate letter. It is upatha. So in Gudin Shabda, this ikara is innanta, ends with in, and this ikara is upatha, and it gets dirgha. So gunin, that's e gunini. Gunini. Evanja, so ekavachanam is guni, divachana gunini, and bahuvachana gunini. Atra si prateye pare dirgha asti. Okay, so we studied this in pullinga only su prateye pare dirgha asti. We studied these two rules, inhan pushariyam nam shau and saucha. So in pullinga, this guni in ekavachana there was dirgha. Su prateye pare dirgha asti guni. So only in ekavachana we did dirgha. In pullinga guni, gunino, guninaha, guninam, gunino. Only in ekavachana there was dirgha, because this sau says only when su prateya follows, then this upadha gets dirgha. And this is another rule, inhan pushariyam nam shau. When shi prateya pare api, pathayah dirgha bhavati. Okay? Yes. And in the last class, there was a question, why they divided this sutra, inhan pushariyam nam shau and saucha. I think Kalyan Krishnanji asked this question. So they could have said, inhan pushariyam nam shau, and also this sau can also be added in the same rule. But this sau, ityasya anuvritti asti. So in shau ityasya anuvritti nasti, but the sau, the word sau goes to next sutra also. Therefore they divided these two sutras, inhan pushariyam nam shau saucha iti vibhaga krita. Kimartham iti sau iti padasya anuvritti agrimesha sutreshu asti. Therefore there are two rules. Okay, there are some questions. According to this rule, nakara disappears in all napumsaka linga. Nakara disappears. Yes, nakara disappears not only in napumsaka linga, it disappeared in pullinga also. No. See, guni, guni no guni da. In ekavachana, here I have written guni. So this nakara disappeared in pullinga also. So if tatra nalopaha pratipadikantam padam, those it should be pratipadika. Some, so gunin is a pratipadika, it is also pada. What is pratipadika to which we add this supratyaya, that is pratipadika. So gunin is a pratipadika and it also has pada samnya. Pada samnya api asti. Kimartham pada samnya asti? Tatra supratyaya agatah, supratyaya agatya luptah. So it is subanta. Subantatva padasamnyapi asti. Pratipadikam api guni nityeva asit. Hataha tasya tadrashasya. Tadrashashabdasya nakarasya lopaha bhavati. Pratipadikantam yat padam. Pratipadika samnya bhavet, padasamnyapi bhavet. Tadrashasya shabdasya nakaraha lupyate. It's applicable in the Napumsaka Linga also. We applied it in Pullinga. Okay. Prashna Siva, Kalyan Krishnanji?
No, no, I'm good. Thank you.
Okay, okay. Good. Yeah.
Okay.
Yeah. Astu? Sakaranta shabda, for example, manas shabda. Please explain 6, 4, 12 once more. Okay. 6, 4, 12. Inhan pushariyam nam shau. Okay, yeah. See, this gunin shabda See, there are two words. Inhan Pusharyam Nam Shau. Shau is Saptame Bhakti of Shi Pratyaya. Shi ityasya Saptame Bhakti Shau. Therefore, Shi Pratyaya Pare ityarthaha. Shi Pratyaya Pare. Kim Bhavati Upadhayaha Dirghaha. उपधा उपधा नाम अंत्यात् पूर्वः वर्णः अस्मिन् उदाहरणे इकारः उपधा पेनल्टिमेंट डेटा अंत्यात् पूर्वः वर्णः उपधा तस्य दीर्घः केषां शब्दानां इन हन पूष पूषार्यम नाम पूषन अर्यमन इन्नन्तानां इन अंत एंडिंग विद इन गुणिन शब्द एंड्स विद इन अतः इन्नन्तः एंडिंग विद हन देयर आर वर्ड्स लाइक Vritrahan, Vritrahan, so ends with Han. Then Pushan, Aryaman, Etesham, Shau Eva Dirghaha. Si Prate Pare Eva Dirghaha Bhavati. Ataha Gunin Shabdat Si Prate Pare Upathayaha Dirghaha Bhavati. Dirghaha Kriyate Chet Gunin Iti Rupan. Gunin. In Si Pratyaya only E remains, Shakara is it, so it disappears. Gunin E, Gunini. Okay. So this is the meaning of this sutra. Innanta Shabdasya, Innanta Shau, Si Pratyaya Pare, Upathayaha Dirghaha. Okay, yeah. अतः दीर्घः भवति गुणिन बिकम्स गुणीन ओके देन सकारांत मनस शब्द अत्रापि मनस समानः प्रत्ययः मनस प्लस सु प्रत्ययस्य लोपः भवति अतः मनस पदस्य अन्ते सकारः अस्ति चेत् तस्य विसर्गः भवति सो Actually, first the sa changes to ra, then ra gets visarga. There are two rules which we studied in Santhi Prakarana. Sasa jusho ruhu. Sasa jusho ruhu. By which su gets ru, sasa jusho ruhu. Okay. Then visarga, karavasana yoho visarjaniyaha. Karavasana yoho visarjaniyaha. These two rules we studied previously. So, manas becomes manaha. This is ekavachana rupam, manaha. Then, manaha, manas plus e, yivachana pratyaha. Sorry. Manas, e. So, manasi. Visheshaha kopi nasti, manas plus e, manasi. Divachanam, Bahuvachanam, Talikami, Manas, S, E, Rasvaikaraha. So it is a Jhalanta. Ataha, Jhalantasya, Sarvanamasthane Pare, Numagamaha Bhavati. Manans, Manans, plus E. Then Santa Mahata Sanyogasya, we studied this sutra in Pullinga. Santa Manans is Sakaranta Hasti, Santa Ataha Santaha Shabdaschet Upatha Nakara Drishtya Yaha Upatha Nakara Drishtya Upatha Akara. This is Upatha. If you take Nakara, then Akara is Upatha. Nakara Drishtya Upatha Akara Tasya Dirghaha. So manan, manan, su plus e. Then this nakara gets anuswara, so it becomes manamsi. There is a rule, nashta apadanta siddhari. I think we studied in Santhi Prakarana. by that rule, this nakara gets anuswara. Nascha apadantasya jali. Begins with nascha. Nascha apadantasya jali. Okay. Iti sutrena nakarasya anuswara. Apadantasya. Okay. Evancha. Manaha ekavachanam, manasi divachanam, manamsi iti bahuvachanam. Eva meva dvitiya bhakto api. Manaha, manasi, manamsi. Astu, sarvatra api ekavachane divachane cha parivartanam bhavati. Napumsakalinge. Tatra api ekavachane ekavachane divachane bahuvachane prathama vibhakte hai ekavachane divachane bahuvachane dvitiya vibhakte hai ekavachane divachane bahuvachane cha rupani parivartante tritiya vibhaktitah arabhya pullinge yatha prakriya tadvadeva napunsakalinge api prakriya. Okay, so now this pachat shabda etasya vishaye na uktam, this remaining, so there are, we have to understand few rules, and we should also know this dhatu vyavastha. So we'll explain the prakriya of pachat shabda. No, so to understand that, we should know these ganas. So all the dhatus, there are about 2000 dhatus, and they are divided under these 10 headings: bhadi, adadi, johotyadi, divadi, swadi, tudadi, ruthadi, tanadi, kriyadi, churadi, ityevam dasa ganaha santi. Dashasu ganeshu ete sarve api dhatavaha vibhaktaha santi. Pratyekam ganasya vikarna pratyaha asti. This is vikarna. The pratyaya which is added in between dhatu and thing pratyaya, that is called vikarna pratyaya. So each, there are different vikarna pratyayas. See, the bhadigana has shap, adadiganasya vikarna pratyaya, though it is shap, but it disappears. Look means, there are these two words, you can see look and shlu, pratyasya adarshanam. So generally the meaning is same. Either the look means lopa, adarshana, shlu also means lopa, adarshana, pratyasya adarshanam bhavati. Lukva bhavatu, shluva bhavatu, pratyasya adarshanam bhavati. Kintu kaha bhedaha, look, shlu, anayoha kaha bhedaha ati chet. So you can see the difference here. See, juhoti adi. So the first dhatu is hu, and it becomes juhoti in latlakara. Here it is at. Is atti, to eat, khadati, ityartha. See, kaha bhedaha iti chet, you can see the dhatu was hu, but you can see there are ju hu. Though the dhatu is hu, we'll find two forms, ju and hu. It is duplication, dittvam. Hu dhatu sthet, it should be hoti. But the latlakara ekavachana form is juhoti. Kimartham juhoti iti rupam bhavati, dvittvam bhavati. So, hu ityasya dvitve, it becomes hu, and there are some rules. By that, hu becomes ju. Ataha juhoti iti rupam. So, this is because of this shlu. This is the influence of shlu pratyaya. Shlu iti lopaha eva, though both look and shlu mean same, by the word look also pratyayadarshana, by the word shlu also pratyayadarshana is meant. But if it is shlu, then there will be duplication. Dvittvam bhavati. Ataha juhu iti rupam. Atra dvittvam nasti. Ataha kevalam look bhavati, kintu dvittvam nasti. Therefore, you can see only atti, adu dhatu, adu plus ti atti. Dvittvam nasti. Iti bhedaha. Luk punaha shlu anayoha madhye ayam bhedaha. So, shap, divadiganasya shenniti vikarna pratyaha, swadiganasya shenniti dra ya avashishade. All other letters get इत्संज्ञा इन् शब् अकारः अवशिष्यते. स्नु इत्यत्र नु इति अवशिष्यते. देन् तुदादिभ्यः श अकारः अवशिष्यते. रुदादिभ्यः स्नम् नकारः अस्ति. तनादिभ्यः उः उकारः. क्लादिभ्यः स्न ना. चुरादिभ्यः शप् अ. इति एते विकरणप्रत्ययाः. एवं प्रत्येकं गणस्यापि कश्चन विकरणप्रत्ययः अस्ति. अत्र पचत् इत्यत्र दिस् पचत् पचत् इस् डिरैव्ड् फ्रम् शत्रु पच् प्लस् शत्रु बिकम्स् पचत्. पचत् पच् इति धातुः. शत्रु इस् अ कृत् प्रत्यय. पच् प्लस् शत्रु बिकम्स् पचत्. प्रीवियस्ली ऐ मेन्शन् द टु वर्ड्स् सार्वधातुक एण्ड् आर्धधातुक. शत्रुप्रत्ययः शत्रु इस् अ सार्वधातुकप्रत्यय. सो वाट् इस् सार्वधातुक? इफ् प्रत्यय इस् शित् देन् इट्स् काल्ड् सार्वधातुक. सी शत्रु इस् अ शित् प्रत्यय, देयरफोर् इट्स् काल्ड् सार्वधातुक. ए प्रत्ययः धातोः भवन्ति. ये प्रत्ययाः धातोः भवन्ति ते प्रत्ययाः द्विधा विभक्ताः. सार्वधातुकप्रत्ययः आर्धधातुकप्रत्ययः. षित् प्रत्ययः सर्वदापि सार्वधातुकः इति कथ्यते. एण्ड् सार्वधातुकप्रत्ययस् नीड् दिस् गणव्यवस्था. सार्वधातुकप्रत्ययः गणव्यवस्थाम् अवलम्ब्य प्रवर्तन्ते. सो पचत् इति शत्रुप्रत्ययान्तः अस्ति. शत्रु इस् सार्वधातुकप्रत्यय, देयरफोर् वी हाव् टु अण्डर्स्टाण्ड् दिस् गणव्यवस्था. सो देर् आर् फ्यू रूल्स् written here. The first rule is naabhyastat shatuhu. There are three words. Na abhyastat shatuhu. Shatuhu, shatru is the rakara. Like pitru becomes pituhu, shatru becomes shatuhu. Na abhyastat. Abhyasta, abhyasta iti kachit samnya is a technical term. Kaha arthaha? Yes. यदि द्वित्वं भवति, अत्र उदाहरणार्थं जुः, अत्र द्वित्वम् अस्ति, डुप्लिकेशन् द्वित्वम् अस्ति. यदि द्वित्वम् अस्ति तर्हि तस्य अभ्यस्त इति संज्ञा. दिस् इस् काल्ड् अभ्यस्त. जुः इस् काल्ड् अभ्यस्त. अभ्यस्त इस् टेक्निकल् टर्म् यूस्ड् बै पाणिनि. सो उभे अभ्यस्तं. सो दिस् फार्म् जुः इस् काल्ड् अभ्यस्त. यत्र द्वित्वम् अस्ति, यत्र द्वित्वं कृतं, तत् रूपं द्वित्वसहितं रूपं यदस्ति तत् अभ्यस्तम् इति कथ्यते. सो अभ्यस्तात् न अभ्यस्तात् शत्रुप्रत्ययः चेत् नुमागमः न भवति. अभ्यस्तात् शत्रुप्रत्ययः चेत् नुमागमः न भवति. सो वाट् इस् एन् एक्साम्पल्? सी इन् पचत् शब्द पुल्लिङ्ग पुल्लिङ्गे किं कृतम् अस्माभिः? द फार्म् वि गाट् पुल्लिङ्ग एकवचन वास् पचन्. पचन् पचन्तौ पचन्तः इस् वास् द फार्म् इन् पुल्लिङ्ग. बट् अभ्यस्तात् शतुः नुमागमः नास्ति. बट् इफ् यु टेक् हू धातु एण्ड् इफ् एड् शत्रुप्रत्यय टु दिस् धातु देन् इट् बिकम्स् जुहु जुह्वत् becomes juhvat. Here juhu is abhyasta. Abhyastat shatrupratyaya asti. Pachat ityatra abhyastat shatrupratyaya nasti. Abhyastam nama dvittvam. Ata dvittvam kratam asti, tasma shatrupratyaya asti. Pachat ityatra pachu itteva dhatuhu, tasma shatrupratyaya asti. Ataha pachat ityatra numagamah bhavati. In ekavachana you can see numagama pachan. And also in sarvanama sthana pratyaya pare pachan pachantau pachantaha pachantam pachantau, everywhere is a numagama. But abhyasta shatrupratyaya chet numagamah na bhavati. So the ekavachana in pullinga, the juhva shabdah pullinge juhvat itteva rupam praapnoti. जुह्वशब्दस्य पुल्लिङ्गे एकवचने जुह्वत् इत्येव रूपं, जुह्वन् इति रूपं न भवति। पचत् इत्यस्य पचन् इति भवति, जुह्वत् इत्यस्य जुह्वत् इत्येव। दिस् इस् इन् पुल्लिङ्ग, नपुंसकलिङ्ग विल् एक्स्प्लेन् लेटर्. So now I am explaining about pullinga. In pullinga we have seen numagama in pachat shabda, it became pachan, but juhvat shabda, though it is also ends with chatrapratyaya, pullinga ekavachana, the rupam juhvat ityeva natu juhvan iti. Evameva agrepe juhvat juhvato juhvatah, not juhvan juhvanto juhvantah. पचन् पचन्तौ पचन्तः इति भवति, किन्तु जुह्वतौ जुह्वतः इत्येव। किमर्थम् इति चेत् अभ्यस्तात्, अभ्यस्तात् शतृप्रत्ययः अस्ति। अभ्यस्तात् नाम द्वित्वमस्ति अत्र, द्वित्वात् शतृप्रत्ययः अस्ति, अतः नुमागमः न भवति। एवञ्च जुहोत्यादिगणे ये धातवः सन्ति, आल् धातुस् विच् आर् मेन्शन् लिस्टेड् अण्डर् जुहोत्यादिग इन् जुहोत्यादिगण, तस्मात् शतृप्रत्ययः चेत् नुमागमः न भवति। धातु विच् इस् लिस्टेड् इन् जुहोत्यादिगण, तस्मात् शतृप्रत्ययः चेत् नुमागमः न भवति। अतः तत्र जुह्वत् इत्येव रूपं, तत्र अनेके धातवः सन्ति इन् जुहोत्यादिगण, देर् आर् मेनि धातुस्, तत्र तस्मात् शतृप्रत्ययश्चेत् नुमागमः नास्ति। ओके, दे आर् माङ् माने मिमीते अण्ड् द फेमस् धातु विच् इस् इन् जुहोत्यादिगण इस् ददाति, दुदाणि दाने इस् आल्सो इन् जुहोत्यादिगण। सो ददाति इत्यस्मात् दा इस् अ धातु इन् ददाति, ददात् सो दा प्लस् शतृ किं रूपं, ददत् इति रूपं, द दत्। इन् पुल्लिङ्ग एकवचन आल्सो ददत् इत्येव, पुल्लिङ्ग एकवचन आल्सो ददत्, इट्स् नाट् ददन्। पचत् पचन्, ददत् ददत् इत्येव पुल्लिङ्गे एकवचने। किमर्थं, दिस् इस् इन् जुहोत्, दिस् दा धातु इस् इन् जुहोत्यादिगण, सो आल् धातुस् विच् आर् लिस्टेड् अण्डर् जुहोत्यादिगण, तस्मात् शतृप्रत्ययः चेत् नुमागमः नास्ति। किमर्थं नुमागमः न भवति, तत्र द्वित्वं भवति इन् जुहोत्यादिगण, यु आल्वेस् फैण्ड् द्वित्व डुप्लिकेशन्, अतः नुमागमः न भवति। ओके, वाट् अबौट् बिभेति, सो बिभेति आल्सो इन् जुहोत्यादिगण, सो इन् शतृप्रत्यय बिभ्यत् इत्येव रूपं, शतृ सो बिभ्यत्, बिभ्यन् इति न भवति, बिभ्यत्, सः बिभ्यत् अस्ति। भि इस् अ रूट्, इट् इस् इन् जुहोत्यादिगण। ओके, सो देर् आर् मेनी धातुस् इन् दिस् जुहोत्यादिगण, सर्वत्रापि नुमागमः न भवति, अभ्यस्तात् शतुः नुमागमः नास्ति। दिस् इस् द मीनिङ्ग् आफ् दिस् फस्ट् रूल्, नाभ्यस्तात् शतुः। सेकेण्ड् रूल् ईस् वा नपुंसकस्य, नुमागमः कुत्र प्राप्तः, नुमा सर्वनामस्थानप्रत्यये परे नुमागमः नास्ति। इन् पुल्लिङ्ग वि डिड् नुमागम when it was followed by sarvanamasthana pratyaya. See, pachan pachantau pachantaha pachantam pachantau, pancha panchasu sthaneshu numagamah asti, kintu dadat shabdah chet numagamah panchasu sthaneshu api nasti, dadat dadatau dadataha dadatam dadatau itteva kutra api numagamah nasti. Dutiyam sutram asti va napumsakasya, napumsakasya va, va विकल्प ऑप्शनल, नपुंसकस्य नुमागमः विकल्पेन। सो दिस इज द नेक्स्ट रूल इमीडिएटली 717, ओके, ओ Okay, some mistake is there. I think it is 718. Ekam Nesham. Drishtva Vadami. 71. Okay, oh. 7. Okay. Oh, I couldn't see this. Yeah, 7179. So, the immediately after Nathastha Chatuhu, Vanapumsakasya is mentioned. Atah kaha arthaha abhyastat shatrapratyaha chet numagamaha nasti iti prathamasutrasya arthaha. But the previous rule is optional in the Pumsakalinga. Nathastha Chatuhu is optional in the Pumsakalinga. It means, so first I will remove all this. Kahar in the Pumsakalinga. See, I will take this Dadat Shabda. Dadat plus Su. Su ityasya lopaha bhavati. And this is not Sarvanamasthana. Ataha Dadat ityeva. Then Dadat plus Au. Sorry, Dadat plus E. Tivachanam E iti pratyaha, dadat plus E, dadati iti rupam. Atrapi visheshah nasti. Dadati. Bahuvachane, now see, dadat plus E. Asya sarvanama sthana samnyasti. Ataha numagamaha va vikalpena bhavati. Optionally gets num. So there are two forms. Dada, dadant plus E. Or dadat plus E. Ataha rupadvayam dadanti athava or dadati. Okay, va napumsakasya napumsakalinge sarvanamasthane pare numagamaha vikalpena abhyastat. Abhyastat shatrapratyah chet numagamaha vikalpena. It's optional. So dadat, dadati, dadanti. Dadat, dadati, atra. Dadat iti ekavachana rupam. Dadat, dadati iti dvivachana rupam. Dadanti iti bahuvachana rupam. Evameva sarvesham vishe jihotyadigane e dhatavah santi sarvesham api prakriya evameva bhavati. Pullinge sarvanamasthane pare numagamaha nasti. Napumsakalinge sarvanamasthana pratyaye pare vikalpena numagamaha iti visheshah jihotyadigane. Astu. Is it clear? So we have to discuss about other ganas. So this is there are special rules for this. Therefore, I explain this Jyotari gana first. Two more rules are remaining: Achi Nadyornim and Shapshanor Nityamikan C Shap and Shyan here. So Panini took these two Vikarna Pratyas. He mentioned these two Vikarna Pratyas in the sutra itself. So this understanding this gana vyavastha is very much important. And actually there are few dhatus in adadi gana. Kinchit vadami. There are 7 dhatus in adadi gana. Tatra api dvittvam bhavati. 7 dhatus in adadi gana and all dhatus of dhyotyadi gana. They get duplication. So there is a special rule for those 7 dhatus. Therefore, they get duplication though they are in adadi gana. And all dhatus which are listed under jihottyadigana, they also get duplication. And so, etasmadapi, the seven dhatus, after the seven dhatus, if shatrapratya is there, then also there is no namagama. For example, the famous dhatu is jagra dhatu. Jagarti, nidra, nidrakshaya, kshaye, jagarti. So, asmat shatrapratyaha chet, namagama na bhavati. Jagrat itteva, jagran iti na bhavati. Ataha seven dhatus in adadigana, then all dhatus which are listed under jhotyadigana, they have duplication. Ataha tasma shatrapratyaha chet, pullinge namagamaha nasti, napumsakalinge vikalpena namagamaha bhavati. Astu, etasya vishaye kopi prashnaha vartate va? Astu. Yeah, jagarti. Okay. So, yeah, correct. So, there is no duplication, but they act like they have duplication. Means they have this abhyasta samnya. Is mentioned this abhyasta. Abhyasta, the dhatu which has duplication, that gets abhyasta samnya, the duplicated form. For example, dada gets abhyasta samnya, this has abhyasta samnya. And these seven dhatus, which are, though they are in adadigana, these seven dhatus also have abhyasta samnya. I think I told you, they get duplication. Yes, as Swami Nathanji said, they don't get duplication, but they act like a duplicated dhatu. The dhatu which has abhyasta samnya, they act like a dhatu which has duplication. So jagra dhatu, jagra tasya dvittvam na bhavati, kintu dvittve sati yathakaryam. Tatha karyam bhavati, astat numagamah na bhavati ityadikam. It has abhyasta samnya. Okay? Okay. So give an example of abhyasta samnya. See, dada is an example of abhyasta. The duplicated form is called abhyasta. Dada is abhyasta. This is abhyasta. Da is a dhatu, dada is abhyasta. The rule for abhyasta samnya is ubhe abhyastam. You can get its meaning. So ubhe abhyastam iti paninihe sutra. Ubhe abhyastam. Iti sutram. Abhyasta samnya vithayakam sutram. Yeah. So all the dhatus which are listed in jihottyadigana, they get duplication, therefore they have abhyasta samnya. And the dhatus, the seven dhatus which are listed under adadigana, they also have abhyasta samnya. Such as dagru, there are dhatus like daridra, daridrati, daridrati, chakasti, chakasa dhatu. All these seven dhatus, they have abhyasta samnya. What is the number of abhyastam? Okay, just a minute. Six, 15. Abhyastam. Okay, 615. this defines what is abhyasta. Upayabhyastam defines what is abhyasta. But this duplication, not because of upayabhyastam, there is one more rule. It is shlau. Anena sutrena dvittvam bhavati. Shlau. This is in Shastadhyaya Prathama Pada 6.1.10. Ittanena dvittvam. Duplication. Slav ittanena bhavati. Abhyastha, upaya abhyastham ittanena abhyastha samjna vidhiyate. Abhyastha samjna diyate. Okay. Yeah. Astu. Tarihi. Yeah. There are two more rules that I will explain in the next class. Aschina dyornam shapshanor nityam, because it needs explanation. Okay, so that whenever we are getting adding shatrapratyaya, yada shatrapratyaya asya yojanam kurmaha tada gana vyavasthayaha jnanam apekshitam. Yada shatrapratyaya asya rupani gana vyavastham avalambya bhavanti. Generally it is very easy, pachan, patan, likan iti vadamaha, kintu there are many exceptions, so we should know the gana vyavastha, as I mentioned. So Juhotyadi dhatus which are in Juhotyadi gana and the seven dhatus which are mentioned in Adadi gana, tasmat shatrapratyaya chet numagamaha na bhavati. Pullinge numagamaha nasti napumsakalinge vikalpena numagamaha iti ekaha vishayaha uktaha. Annesham dhatu annes anneshu ganeshu vidyamana dhatu nam vishaye agrima pathe vadishyami. Astu tarhi samapayamaha. Vakyakaram prarutim bhashyakaram patanjalim paninim sutrakaram cha pranatosmi manitrayam.